इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारतं विश्वस्य तृतीयं बृहत्तमं अर्थव्यवस्थां कर्तुं कृषिः प्रमुखा भूमिकां निर्वहतीति प्रधानमन्त्री नरेन्द्रमोदी उक्तवान्। प्रधानमन्त्री श्रीमोदी वाराणस्यां प्रधानमन्त्री कृषक सम्मान सम्मेलनावधौ विशाल जनसभां सम्बोधयन् आसीत्। सः अवदत् यत् केन्द्र सर्वकारः कृषकाणां जीवनस्तरं वर्धयितुं प्रतिबद्धः अस्ति, तेषाम् आयवर्धनं च तस्य सर्वकारस्य प्राथमिकता वर्तते। प्रधानमन्त्री नरेन्द्रमोदी कार्यक्रमावधौ प्रधानमन्त्री कृषक सम्मान निधि योजनान्तर्गतं 20,000 कोटिरूप्यकाणां 17वां देयराशिं लाभार्थिभ्यः प्रदत्तवान्। देयराशेः धनं प्रत्यक्षतया 26,00,000 लाभार्थि कृषकाणां वित्तकोषेषु सम्प्रेषितम्। एतस्मिन् कार्यक्रमावधौ श्रीमोदी स्वयं साहाय्य समूहानां 30,000+ महिलाभ्यः कृषि सखी इत्यस्यान्तर्गतं प्रमाणपत्राणि अपि वितरितवान्। प्रधानमन्त्री नरेन्द्रमोदी सायं श्री दशाश्वमेधघट्टे गंगा आरार्तिक्यां समुपस्थितो अभवत्। अनन्तरं प्रधानमन्त्री काशी विश्वनाथ मन्दिरे पूजार्चनां च कृतवान्। अद्य प्रधानमन्त्री बिहारस्य राजगीरस्थले नालन्दायाः भग्नावशेषाणाम् अवलोकनार्थं तत्र गमिष्यति। एतदनन्तरं असौ बिहारस्य राजगीरस्थले नालन्दा विश्वविद्यालयस्य परिसरस्य अपि उद्घाटनं विधास्यति। अत्रावसरे प्रधानमन्त्री तत्र एकां जनसभां सम्बोधयिष्यति। देशानाम् आर्थिक स्थितेः आकलनं कर्तृणा फिच इत्यनेन समवायेन वर्तमान वित्तवर्षाय भारतस्य सकल गृह्योत्पादः अर्थात् GDP इत्यस्य वृद्धेः अनुमानं प्रतिशतं 7 समेत्य 7.2% कृतम्। फिच इत्यनेन समवायेन उपभोक्तृव्यये उत्कर्षं निवेशे च वृद्धिं निध्याय प्राक्तन अनुमाने संशोधनं विहितम् अस्ति। आकलनकर्त्री समवायेन अद्य प्रख्यापिते वैश्विक आर्थिक आकलन प्रतिवेदने एषमः वित्तवर्षाय वैश्विक वृद्धि दरानुमानम् अपि समेधितम्। प्रतिवेदनानुसारं यूरोपीयार्थव्यवस्थायां वृद्धेः सम्भावना एधितास्ति। चीनदेशं विहाय विश्वस्य समेधमान विपणौ क्षेत्रीयावश्यकतां वृद्धिः द्रष्टुं शक्यते। ऋतुविज्ञानविभागेन उत्तर पश्चिम पूर्व भारतस्य कतिपय क्षेत्रेषु निदाध तापे अपचितः अनुमितास्ति। आकाशवाण्याः वार्ताः प्रभागेण सह संवादे भारतीय ऋतुविज्ञानविभागस्य वैज्ञानिकः सोमासेन रायः उक्तवती यत् पश्चिमविक्षोभस्य अन्तर्गतं पंजाबस्य हरियाणायाः च क्षेत्रेषु चक्रवातेन उष्णतायां न्यूनस्य सम्भावना विद्यते। तया उक्तं यत् आगामि 2-3 दिनेषु पश्चिमबंगालस्य उपहिमालयीय क्षेत्रे अथ देशस्य पूर्वोत्तरक्षेत्रेषु प्रबलवृष्टिः प्रवर्धितास्ति। तोमरक्षेपस्पर्धायां ओलम्पिक विजेता विश्वविजेता च नीरज चोपड़ा गतरात्रौ फिनलैंड तुर्कनगरे पावो नूर्मी क्रीडांगणे विश्व एथलेटिक कॉन्टिनेंटल टूर इति स्पर्धायां स्वर्णपदकं विजितवान् इति वार्ताः।